इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। केन्द्रीय वित्तमन्त्री निर्मला सीतारामनः प्रोक्तवती यत् नूतन जीएसटी व्यवस्था नागरिकाणाम् उपभोगं वर्धयिष्यति, आर्थिक व्ययं न प्रभावयिष्यति। केन्द्रीय कृषि मन्त्री शिवराज सिंह चौहानः अद्य अवदत् यत् सः क्षति विषये विस्तृतं प्रतिवेदनं प्रधानमन्त्रिणं समर्पयिष्यति। मॉरिसस देशस्य प्रधानमन्त्री नवीन चन्द्र रामगुलामवर्यः अस्य मासस्य 9-16 दिनांक पर्यन्तं भारतस्य राजकीय यात्रां करिष्यति। रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुटिनः अवदत् यत् यूक्रेन देशे नियुक्ताः काश्चन पाश्चात्य सैनिकाः मॉस्को देशस्य आक्रमणार्थं वैधानी लक्ष्यानि भविष्यन्ति। अपि च यूएस ओपन टेनिस क्रीडायां अमांडा अनिसिमोवा इत्येषा नाओमी ओसाका इत्येतां पराजित्य आर्याना सबालोन्का इत्यनया सह महिला एकल क्रीडायाः निर्णायकद्वन्द्वे प्रविष्टवती। अथ वार्ताः विस्तरेण। केन्द्रीय वित्तमन्त्री निर्मला सीतारामनः प्रोक्तवती यत् नूतन जीएसटी व्यवस्था नागरिकाणाम् उपभोगं वर्धयिष्यति, आर्थिक व्ययं न प्रभावयिष्यति इति। एकस्याः वार्तावाहिन्याः साक्षात्कारे श्रीमती सीतारामनः अवोचत् यत् सर्वेषामपि वस्तूनां करः अधुना 0.5-18% कोष्ठकेषु वर्तते। सा अवोचत् यत् एतत् प्रथमः क्षतिपूर्ति अवसरो विद्यते, यतोहि जीएसटी इति विषये विस्तृतः प्रस्तावः केन्द्रेण स्वीकृतः अस्ति। मन्त्री अवदत् यत् पेट्रोलियम् मादकपदार्थाः जीएसटी तः बहिः भविष्यन्ति इति। श्रीमती सीतारामनः अवदत् यत् आत्मनिर्भर भारतस्य उद्देश्यं न केवलं देशे सर्वम् उत्पादनम् अपि तु अनिश्चित वैश्विक व्यापार नीतीनां सम्मुखे आत्मसम्मानम् अपि वर्तते। केन्द्रीय कृषि मन्त्री शिवराज सिंह चौहानः अवदत् यत् सः क्षति विषये विस्तृतं प्रतिवेदनं प्रधानमन्त्रिणं समर्पयिष्यति इति। सोशल मीडिया सन्देशे सः अवदत् यत् संकटम् अपारमस्ति, परञ्च केन्द्र सर्वकारः पंजाबराज्यं ततः बहिः नेतुं वांछितोपायान् करिष्यति। जलप्लावित पंजाब प्रदेशस्य एकदिवसीय यात्रायां गतदिने श्रीचौहानः जलप्लावित क्षेत्राणां पुनर्निर्माणे अल्पकालिक मध्यम दीर्घकालीन योजनानां च विषये अवधानं प्रदत्तवान्। मॉरिशस देशस्य प्रधानमन्त्री नवीन चन्द्र रामगुलामवर्यः अस्य मासस्य 9-16 दिनांक पर्यन्तं भारतस्य राजकीय यात्रां करिष्यति। विदेशमन्त्रालयस्य प्रवक्ता रणधीर जयशवालः अवदत् यत् श्रीरामगुलामवर्यः भारते एतत् प्रथमं वैदेशिक द्विपाक्षिक भ्रमणं करिष्यति इति। अस्मिन् यात्रायां दिल्लीनगरम् अतिरिच्य मॉरिशस देशस्य प्रधानमन्त्री मुम्बईनगरं वाराणसीनगरम् अयोध्यां तिरुपतिं च गमिष्यति इति सः अवदत्। अद्य सर्वत्र केरलसमुदायेन तिरुओणम् महोत्सवः सोल्लासेन सोत्साहेन च आचर्यते। अयम् उत्सवः केरलस्य महत्वपूर्णेषु उत्सवेषु भवति। गतदिनेभ्यः राज्यं समग्रम् उत्सवभावेन रम्यं जातम्। ओणम् धार्मिकस्य महाबली महाराज्ञस्य पुनरागमन स्मरण रूपेण आचर्यते। यः न्यायप्रियः दयालु च आसीत्। समग्रे केरलराज्ये शासकीय संस्थाः सांस्कृतिक संघटनानि स्थानीय समुदायाः च नानाविधान् सांस्कृतिक कार्यक्रमान् आयोजयन्ति। सबरीमाला गुरुवायूर त्रिक्करादि प्रमुख मन्दिरेषु अद्य विशेष पूजाः सम्पद्यन्ते। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर मोबाइल ऐप इत्यत्र अपि उपलब्धो भविष्यति। राष्ट्रपति द्रौपदी मुर्मू वर्या प्रोक्तवती यत् महिला नेतृत्वस्य विकासं प्रोत्साहनाय सर्वाधिकः उत्तमः उपायः अस्ति यत् बालिकानां कृते सर्वोत्तम शिक्षणप्रदानम्। अद्य शिक्षकदिवसस्यावसरे नवदेहल्ली नगरे 25-2000 राष्ट्रिय शिक्षक पुरस्कारान् वितरणानन्तरं तत्र उपस्थित जनसमूहं सम्बोधयन्ती राष्ट्रपति प्रोक्तवती यत् महिलानां शिक्षा सर्वोच्च प्राथमिकतायां भवेदिति। कन्यानां शिक्षायां निवेशः परिवाराणां समाजस्य राष्ट्रस्य च विकासाय अमूल्यं योगदानम् अस्ति इति सा अवोचत्।
बालिकाओं की शिक्षा को सर्वाधिक महत्व दिया जाना चाहिए। बेटियों की शिक्षा में निवेश करके हम अपने परिवार, समाज और राष्ट्र के निर्माण में अमूल्य निवेश करते हैं। आधुनिक भारत में स्त्री शिक्षा की आधारशिला रखने वाली सावित्रीबाई फुले जी की स्मृति में मैं उनको सादर नमन करती हूँ।
अद्यत्वेषु वर्षेषु उच्च शिक्षायां बालिकानां समग्र नामाङ्कनानुपातः महत्वपूर्णरूपेण वर्धितः इति राष्ट्रपतिः प्रसन्नतां प्रकटितवती। राष्ट्रपति अवदत् यत् शिक्षा जनं शक्तं करोति, दुर्बलतम पृष्ठभूम्याः बालकान् उल्लेखनीयं प्रगतिं प्राप्तुं समर्थयति। राष्ट्रपतिः मुर्मू प्रोक्तवती यत् 20-अधिक-2000 राष्ट्रिय शिक्षा नीतिः विद्यालयीय स्तरे शिक्षां सुलभतरं निर्विघ्नं च निर्मातुं विशेषं महत्त्वं ददति इति।
राष्ट्रीय शिक्षा नीति का उद्देश्य है कि भारत एक ग्लोबल नॉलेज सुपर पावर बने। इसके लिए ये अनिवार्य है कि हमारी शिक्षकों की पहचान विश्व के सर्वश्रेष्ठ शिक्षकों के रूप में हो। स्कूल एजुकेशन, हायर एजुकेशन और स्किल एजुकेशन, शिक्षा के इन तीनों क्षेत्रों में हमारी संस्थानों और शिक्षकों को बढ़ चढ़कर योगदान देना है। इस दिशा में हमारे शिक्षण संस्थान और शिक्षक आगे बढ़ रहे हैं, लेकिन अभी हमें बहुत आगे जाना है। मुझे विश्वास है कि हमारे शिक्षकगण अपने निर्णायक योगदान से भारत को ग्लोबल नॉलेज सुपर पावर के रूप में प्रतिष्ठित करेंगे।
प्रधानमंत्री नरेन्द्र मोदी अद्य आंग्ल दैनिक वार्तापत्रे केन्द्रीय शिक्षा मन्त्रिणा धर्मेन्द्र प्रधानेन लिखितः लेखः विनिमयी कृतवान्। 20-अधिक-2000 राष्ट्रिय शिक्षा नीतेः महत्वस्य विषये लिखिते लेखे श्री प्रधानेन 20-अधिक-2000 राष्ट्रिय शिक्षा नीतिः भारतस्य आत्मनिर्भरतायाः विकासस्य च यात्रायाः केन्द्रत्वेन वर्णितम्। भाजपेति दलस्य वरिष्ठः नेता अथ च केन्द्रीय वाणिज्योद्योग मन्त्री पीयूष गोयलः सद्यः एव कृतान् नेक्स्ट जनरेशन जीएसटीति परिष्कारान् ऐतिहासिकं व्यापकं चेति अवोचत्। अद्य अपराह्णे नवदिल्ल्यां दल मुख्यालये वार्ताहरान् सम्बोधयन् श्रीगोयलः अवदत् यत् देशस्य उपभोक्तृभ्यः महती सुलभता प्रदत्ता अस्ति। विदेशमन्त्री डॉ एस जयशंकरः अद्य सायंकाले नवदिल्ल्यां भूटान देशस्य प्रधानमंत्री दासो शेरिंग तोबके वर्येण सह मेलनं करिष्यसि। भूटान देशस्य प्रधानमंत्री बुधवासरे चतुर्दिवसीय यात्रायां भारतम् आगच्छत्। उत्तर प्रदेशस्य अयोध्यायां कार्यक्रमेषु भागग्रहणानन्तरं सः राष्ट्रिय राजधान्यां दिल्ल्याम् आगमिष्यति इति। केन्द्रीय प्रशासनेन सद्य घोषितेषु अनेकेषु विषयेषु वस्तु सेवा करस्य न्यूनीकरणेन समाजस्य विभिन्नेषु वर्गेषु सुलभता प्रकल्पिता। स्वातन्त्र्यदिने रक्तदुर्गात् प्रधानमन्त्रिणा नरेन्द्र मोदिना समाज सामान्य जनानां कृते जीएसटी इत्यस्मिन् परिष्काराः घोषिताः। संशोधनोऽयं मासस्यास्य 22 दिनांकतः प्रवर्तयिष्यते। प्रधानमन्त्रिणः अधिकदक्षनागरिक अनुकूल अर्थव्यवस्थायाः निर्माणस्य लक्ष्यं परिपूर्णम् अभवत्, यतः अस्मिन् मासे तृतीयदिनांके जीएसटी परिषदा करयुक्तिकरणम् अनुमोदितम्। एतैः परिष्कारैः अनेकेषु क्षेत्रेषु करस्य मूल्यं न्यूनीकृतं, येन नागरिकाणां जीवनं सुलभं जातम्। आकाशवाण्याः वार्ताहरैः सह संवादे दिल्ल्याः निवासी लक्ष्मीनारायणः उक्तवान् यत् इदानीं छात्राः लाभान्विताः भविष्यन्ति।
अभी जीएसटी के जो रेट कम किए हैं सरकार ने, हिसाब से मैं ये शिक्षा के क्षेत्र में बहुत अच्छा सराहनीय कदम है। इसमें कम से कम बच्चों की जो पढ़ाई पे इतना खर्चा होता है कि हिसाब से अब देखा जाए तो साथ में जैसे स्टेशनरी है तो उनको वो थोड़ा सस्ता पड़ेगा, और उस हिसाब से कदम बहुत ही सराहनीय है।
रूस देशस्य राष्ट्रपतिः व्लादिमीर पुतिनः अद्य अवदत् यत् यूक्रेन देशे नियुक्ताः काश्चन पाश्चात्य सैनिकाः मॉस्को राज्यस्य आक्रमणार्थं वैध्यानि लक्ष्यानि भविष्यन्ति इति। श्री पुतिनः व्लादिवोस्टोक नगरे आर्थिक मंचे भाषणं कुर्वन् आसीत्। यूएस ओपन टेनिस क्रीडायां अमांडा आनिसिमोवा इत्येषा नाओमी ओसाका इत्येतां पराजित्य हरियाणा सबालुका इत्यनया सह महिला एकल क्रीडायाः निर्णायक द्वन्द्वे प्रविष्टवती इति वार्ताः।